इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। प्रधानमन्त्रिणा नरेन्द्रमोदिना ह्यः नेक्स्ट जनरेशन रिफॉर्म्स इत्यस्य प्रारूपस्य समीक्षार्थम् उच्चस्तरीय सभायाः अध्यक्षता कृता। उपवेशनं जीवनव्यापारयोः च सुगमतां वर्धयितुं सर्वसमावेशकसमृद्धिं प्रवर्धयितुम् उपायान् गतिं प्रदातुं च केन्द्रितम् आसीत्। शासनम् आर्थिकवृद्धिं च सुदृढीकरणाय एतैः उपायैः नागरिकेभ्यः प्रत्यक्षलाभः सुनिश्चिताय च सुनियोजिताः उपायाः अधिकारिणः प्रधानमन्त्रिणं सूचितवन्तः। एषा उच्चस्तरीयसभा प्रधानमन्त्रिणः स्वातन्त्र्यदिवसस्य भाषणस्य अनन्तरम् अभवत्, यत्र सः GST सुधाररूपेण दीपावली उपहारेण करभारः न्यूनीकर्तुं प्रतिज्ञां कृतवान्। गृहमन्त्री अमितशाहः, रक्षामन्त्री राजनाथसिंहः, मार्गपरिवहनमन्त्री नितिनगडकरी, कृषिमन्त्री शिवराजसिंहचौहानः, वित्तमन्त्री निर्मलासीतारामनः, वाणिज्योद्योगमन्त्री पीयूषगोयलः च भारतीयार्थव्यवस्थाम् आधारभूतसंरचनाः च सुदृढीकरणाय इत्यादिषु विषयेषु आयोजिते सभायां भागं गृहीतवन्तः। रूसदेशस्य राष्ट्रपतिः व्लादिमीर पुटिन इत्येषः प्रधानमन्त्रिणं नरेन्द्रमोदिनम् अलास्कायाम् अमेरिकादेशस्य राष्ट्रपतिना डोनाल्ड ट्रम्पेन सह सद्यः एव जातस्य मेलनस्य विषये विवरणं प्रदातुं ह्यः दूरभाषया सम्पर्कम् अकरोत्। सोशल मीडिया सन्देशे श्रीमोदी रूसदेशस्य राष्ट्रपतिं विवरणानाम् आदानप्रदानाय धन्यवादं प्रदत्तवान्, तथा च भारतं यूक्रेन संघर्षस्य शान्तियुतस्य समाधानाय निरन्तरम् आह्वानं करोति, अस्मिन् विषये सर्वविध प्रयत्नाञ्च समर्थयति इति सुदृढीकृतवान्। श्रीमोदी आशा प्रकटितवान् यत् आगामि दिनेषु राष्ट्रपतिना पुटिनेन सह निरन्तरं वार्तालापः भविष्यति इति। विदेशमन्त्री डॉ एस जयशंकरः ह्यः नवदिल्ल्यां चीनदेशस्य विदेशमन्त्रिणा वांग यी इत्यनेन सह वार्तालापम् अकरोत्। उपवेशनस्य आरम्भे डॉ जयशंकरः द्वैपाक्षिकसम्बन्धान् कठिनकालात् अग्रेप्रवर्धनाय परस्परम् आदरः, संवेदनशीलता, अभिरुचि इत्येतेषु त्रिआयामेषु अवधानं दत्तवान्।
Having seen a difficult period in our relationship, our two nations now seek to move ahead. This requires a candid and constructive approach from both sides. In that endeavor, we must be guided by the three mutuals: mutual respect, mutual sensitivity, and mutual interest. Differences must not become disputes, nor competition conflict.
आर्थिक व्यापारः, तीर्थयात्रा, जनसम्पर्कः, नदीदत्तांश आदानप्रदानं, सीमा व्यापारः, सम्पर्कः, द्वैपाक्षिक आदानप्रदानेषु च चर्चापि भवत्। डॉ जयशंकरः अवदत् यत् चीनदेशस्य विदेशमन्त्री अद्य विदेशप्रतिनिधिना तथा राष्ट्रियसुरक्षापरामर्शदेन अजीत डोबालेन सह सीमाविषयेऽपि चर्चां करिष्यति इति। NDA-दलस्य उपराष्ट्रपतिपदस्य प्रत्याशी CP राधाकृष्णनवर्यः श्वः नामाङ्कनं करिष्यति। राष्ट्रियराजधान्यां श्रीराधाकृष्णनवर्यस्य आगमनानन्तरं ह्यः नवदिल्ल्यां NDA-पक्षनेतृभिः सह परिचयात्मकं मेलनं जातम्। सभायाः अनन्तरं नवदिल्ल्यां वार्ताहरान् सम्बोधयन् संसदीयकार्यमन्त्री किरेन रिजिजुः अवदत् यत् सर्वे NDA-पक्षस्य नेतारः नामाङ्कनप्रक्रियायां भागं ग्रहीष्यन्ति इति। मन्त्री अवदत् यत् अद्य NDA-संसदीयदलस्य उपवेशनं भविष्यति। कजाकिस्तानस्य स्यामकेंट इत्यत्र 16वें एशियाई चैम्पियनशिप स्पर्धायाः प्रथमे दिने भारतेन ह्यः 2 स्वर्णपदके, 3 रजतपदकानि च विजितानि। 17-वयोवर्षीयः गिरीशगुप्ता इत्यनेन 10-मीटरपरिमिते एयर पिस्टल पुरुष युवा स्पर्धायां स्वर्णपदकं विजितम् इति वार्ताः।
Having seen a difficult period in our...